प्रातः स्मरामि भणिराजतनौ शयानम् नागामरसुरनरादिजगन्निदानम् वेदैः सहागम गणैरुपगीयमानम् कान्तारकेतनवता परमं निधानम् प्रातः स्मरामि भणिराजतनौ शयानम् नागामरसुरनरादिजगन्निदानम् वेदैः सहागम गणैरुपगीयमानम् कान्तारकेतनवता परमं निधानम् प्रातर्भजामि भवसागरवारिपारम् देवर्षिसिद्धनिवहैर्विहितोपहारम् संतृप्तदानवकदम्बमदापहारम् सौन्दर्यराशिजलराशिसुताविहारम् प्रातर्भजामि भवसागरवारिपारम् देवर्षिसिद्धनिवहैर्विहितोपहारम् संतृप्तदानवकदम्बमदापहारम् सौन्दर्यराशिजलराशिसुताविहारम् प्रातर्नमामि शरदम्बरकान्तिकान्तम् पादारविन्दमकरन्दजुषाम्भवान्तम् नानावतारहृतभुवि भरं कृतान्तम् पादोजकं पुरध पादकरं प्रशान्तम् प्रातर्नमामि शरदम्बरकान्तिकान्तम् पादारविन्दमकरन्दजुषाम्भवान्तम् नानावतारहृतभुवि भरं कृतान्तम् पादोजकं पुरध पादकरं प्रशान्तम् श्लोकत्रयमिदं पुण्यं ब्रह्मानन्देन कीर्तितं यः पठेल् प्रातरुत्थाय सर्वपापैः प्रमुच्यते।